Okay, we will learn the verses from 31 to 35 of 6th chapter Bhagavad Gita, Sarva Bhuta.
Sarva Bhuta.
Sarva Bhuta. Sarva Bhuta.
Sitam.
Sitam.
Yoma.
Yoma. Yoma. Yoma.
Bhajati.
Bhajati. Bhajati.
Ekatvam.
Ekatvam. Ekatvam. Ekatvam.
Astita.
Astita. Astita.
Sarvata.
Sarvata. Sarvata.
Vartamanopi,
Vartamanopi, Vartamanopi, Vartamanopi,
Sayogi,
Sayogi, Sayogi,
Mayi Vartate,
Mayi Vartate, Mayi Vartate, Mayi Vartate,
Sarva Bhuta Stitam Yoma,
Sarva Bhuta Stitam Yoma, Sarva Bhuta Stitam Yoma, Sarva Bhuta Stitam Yoma,
Bhajat Ekattam Astita,
Bhajat Ekattam Astita, Bhajat Ekattam Astita,
सर्वता वर्तमानोपि
सर्वता वर्तमानोपि सर्वता वर्तमानोपि सर्वता वर्तमानोपि
सयोगी मयि वर्तते
सयोगी मयि वर्तते सयोगी मयि वर्तते सयोगी मयि वर्तते
सर्वभूतस्थितं यो मां भजते कत्तमस्थिता सर्वता वर्तमानोपि सयोगी मयि वर्तते सर्वत्र समं पश्यति योर्जुन सुखं वा यदि वा दुःखं स योगी परमो मतः आत्मोपम्येन सर्वत्र
आत्मोपम्येन सर्वत्र आत्मोपम्येन सर्वत्र आत्मोपम्येन सर्वत्र
समं पश्यति अर्जुन
समं पश्यति अर्जुन सर्वं पश्यति अर्जुन समं पश्यति अर्जुन
समं ओके समं सुखं वा यदि वा दुःखं
सुखं वा यदि वा दुःखं सुखं वा यदि वा दुःखं सुखं वा यदि वा दुःखं
सयोगी परमो मतः
सयोगी परमो मतः सयोगी परमो मतः सयोगी परमो मतः
आत्मोपम्येन सर्वत्र समं पश्यति अर्जुन सुखं वा यदि वा दुःखं सयोगी परमो मतः
आत्मैवमेव सर्वत्र सर्वं पश्यति अर्जुन सुखं वा यदि वा दुःखं सयोगी परमो मतः आत्मैवमेव सर्वत्र सर्वं पश्यति अर्जुन सुखं वा यदि वा दुःखं सयोगी परमो मतः आत्मैवमेव सर्वत्र सुखं वा यदि वा दुःखं सयोगी परमो मतः
योयाम्
योयाम्
योगस
योगस योगस योगस
त्वया प्रोक्ता
मतदि
साम्येन अर्जुन उवाच
अर्जुन उवाच अर्जुन उवाच
योयम
योयम योयम योयम
योगस
योगस योगस योगस
त्वया प्रोक्ता
त्वया प्रोक्ता त्वया प्रोक्ता त्वया प्रोक्ता
साम्येन
साम्येन साम्येन साम्येन
मधुसूदन
मधुसूदन मधुसूदन मधुसूदन
एतस्याहम्
एतस्याहम् एतस्याहम् एतस्याहम्
न पश्यामि
न पश्यामि न पश्यामि न पश्यामि
चञ्चलत्वात्
चञ्चलत्वात् चञ्चलत्वात् चञ्चलत्वात्
स्थितिं स्थिराम्
स्थितिं स्थिराम् स्थितिं स्थिराम्
अर्जुन उवाच योऽयं योगस्त्वया प्रोक्ता
अर्जुन उवाच
योयम् योगस्त्वया प्रोक्ता
योयम् योगस्त्वया प्रोक्ता योयम् योगस्त्वया प्रोक्ता योयम् योगस्त्वया प्रोक्ता
साम्येन मधुसूदन
साम्येन मधुसूदन साम्येन मधुसूदन साम्येन मधुसूदन
एतस्याहं न पश्यामि
एतस्याहं न पश्यामि एतस्याहं न पश्यामि
चञ्चलत्वात् स्थितिं स्थिरम्
चञ्चलत्वात् स्थितिं स्थिरम् चञ्चलत्वात् स्थितिं स्थिरम् चञ्चलत्वात् स्थितिं स्थिरम्
अर्जुन उवाच योऽयं योगस्त्वया प्रोक्ता साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिरम्
अर्जुन उवाच योऽयं योगस्त्वया प्रोक्ता साम्येन मधुसूदन
चञ्चलम्
चञ्चलम् चञ्चलम् चञ्चलम्
हि मन कृष्ण
हि मन कृष्ण हि मन कृष्ण हि मन कृष्ण
प्रमाति
प्रमाति प्रमाति प्रमाति
बलवदृढम्
बलवदृढम्
तस्याहम्
तस्याहम् तस्याहम्
निगृहम् मन्ये
निगृहम् मन्ये निगृहम्
वायोर्
वायु वायु वायु
इव
इव इव इव
सुदुष्करम्
सुदुष्करम्
चञ्चलम् हि मन कृष्ण
चञ्चलम् हि मन कृष्ण चञ्चलम् हि मन कृष्ण चञ्चलम् हि मन कृष्ण
प्रमाति बलवदृढम्
प्रमाति बलवदृढम् प्रमाति बलवदृढम् प्रमाति बलवदृढम्
तस्याहं निगृहं मन्ये
तस्याहं निगृहं मन्ये तस्याहं निगृहं मन्ये तस्याहं निगृहं मन्ये
वायोरिव सुदुष्करम्
वायोरिव सुदुष्करम्
दुष्करम्
दुष्करम् वायोरिव सुदुष्करम्
चञ्चलम् इट्स् दिस् वास् एक्साक्ट्लि फार् अस् Arjuna had weapons to control the rain, he could control the wind, he could control fire, he could control everything. He told to Krishna, I have everything to control but my mind, Krishna, I am not able to control. That is the verse for this. Chanchalam hi mana Krishna pramati balavadridam tasyaham nigriham manye vayuriva sadushkaram
Chanchalam hi mana Krishna pramati balavadridam tasyaham nigriham manye vayuriva sadushkaram Chanchalam hi mana Krishna pramati balavadridam tasyaham nigriham manye vayuriva sadushkaram Chanchalam hi mana Krishna
श्री भगवान् उवाच
श्री भगवान् उवाच श्री भगवान् उवाच श्री भगवान् उवाच
असंशयम्
असंशयम् असंशयम् असंशयम्
महाबाहो
महाबाहो महाबाहो महाबाहो
मनो
मनो मनो मनो
दुर्निग्रहम्
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 दुर्निग्रहम् दुर्निग्रहम् दुर्निग्रहम्
चलम्
चलम् चलम् चलम्
अभ्यासेन
अभ्यासेन अभ्यासेन अभ्यासेन
तु कौन्तेय
तु कौन्तेय तु कौन्तेय तु कौन्तेय
वैराग्येन
वैराग्येन वैराग्येन वैराग्येन
च गृह्यते
च गृह्यते च गृह्यते च गृह्यते
यु पॉइंट सिट देयर Go there. Go. Go there. You're disturbing them. You're not saying properly.
Ade.
Shri Bhagavan Uvacha.
Shri Bhagavan Uvacha. Shri Bhagavan Uvacha. Shri Bhagavan Uvacha.
Asamshayam Mahabaho.
Asamshayam Mahabaho. Asamshayam Mahabaho. Asamshayam
कौन्तेय
अभ्यासेन तु कौन्तेय अभ्यासेन तु कौन्तेय अभ्यासेन तु कौन्तेय
वैराग्येन च गृह्यते
वैराग्येन च गृह्यते वैराग्येन च गृह्यते वैराग्येन च गृह्यते
श्रीभगवानुवाच संशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेने तु कौन्तेय वैराग्येन च गृह्यते जते कत्तमास्थिता सर्वता वर्तमानोऽपि स योगी मयि वर्तते आत्मोपम्येन सर्वत्र समं पश्यति अर्जुन सुखं वा यदि वा दुःखं स योगी परमो मत अर्जुन उवाच योऽयं योगः स्वया प्रोक्ता साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिं स्थिराम् चञ्चलं हि मनः कृष्ण प्रमाति बलवदृढं तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करं श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् अभ्यासेने तु कौन्तेय वैराग्येन च गृह्यते
चंचल कृष्ण रमादे बला